एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। सर्वकारेण आगामिनः आर्थिक वर्षस्य कृते एकविंशति खर्वाणां चतुर्विंशत्यब्जानां चतुस्त्रिंशत् कोटीनां च रूप्यकाणां आयव्ययकं संघीय संसदि प्रस्तुतं वर्तते। ह्य संघीय संसदः प्रतिनिधिसभायाः राष्ट्रियसभायाश्च संयुक्तोपवेशे आयव्ययकं प्रस्तुवन् अर्थमन्त्री डॉ सोनिम वाग्ले समग्र विनियोजनस्य मध्ये संचालनपक्षे द्वादश खर्वः सप्तत्यब्जानि अष्टपञ्चाशत् कोटयश्च रूप्यकाणि, धनसञ्चयनपक्षे चतुः खर्वा एकत्रिंशदब्जानि दशकोटयश्च रूप्यकाणि, वित्तीय व्यवस्थायै चतुः खर्वः द्वाविंशत्यब्जानि चतुष्षष्टि कोटयश्च रूप्यकाणि च विनियुक्तानि सन्तीति प्रावोचत्। अर्थमन्त्री डॉ वाग्ले आगामिनि आर्थिक वर्षे प्रतिशतं सप्तभि अंकहि आर्थिक वृद्धि, प्रतिशतं षड्भि अंकहि मूल्य वृद्धिश्च भविष्यति इति लक्ष्यम् आयव्ययकेन गृहीतमस्ति इति अवोचत्। अर्थमन्त्री डॉ वाग्ले देशे राजनैतिक अस्थिरताया दुष्चक्रम समाप्तमस्ति, बृहदार्थिक सुधारस्य निर्णायक मार्ग प्रारब्धश्चास्ति इति अवोचत्। तदवसरे अर्थमन्त्रिणा डॉ वाग्ले विधेन समष्टिगतम् आर्थिक परिसूचकं सुधारोन्मुखं वर्तते, वैदेशिक धनसञ्चयश्च पर्याप्त मात्रायां वर्तते इति च स्पष्टीकृतमस्ति। अर्थमन्त्री डॉ वाग्ले आयव्ययकमिदं स्वदेशे परदेशेष् च विद्यमानहि नेपाल नागरिकहि विहिताया अपेक्षाया परिपूरणाय विश्वसनीयं नीतिगतम् उपकरणं भविष्यति इति च समस्पष्टयत्। आगामिनः आर्थिक वर्षात् उद्यम व्यवसायं समग्रम् अर्थतन्त्रञ्च गतिशीलं विधातुं करस्य स्वरूपे बृहत् पुनरवलोकनं विहितमस्ति इति चर्चयन् अर्थमन्त्री डॉ वाग्ले राष्ट्रसेवकानां कर्मकराणां वेतने प्रतिशतम् एकविंशत्या अंकहि वृद्धि विहिता अस्ति इति च उक्तवान्। सर्वकारेण आयव्ययकस्य माध्यमेन एकत्रिंशतः निकायानां निरस्तीकरणं, षण्णां निकायानां परस्पर मेलनं, षण्णां निकायानां हस्तान्तरणं, अष्टादश निकायानां पुनर्संरचना च विधास्यते। तथैव नवोद्यमं, नवप्रवर्तनम्, उद्यमशीलताञ्च आर्थिक रूपान्तरणस्य दृढमाधारं निर्मातुं सर्वकारेण नीतिः गृहीता वर्तते चेत् शैक्षिक गुणस्तरस्य वृद्धौ, पूर्वाधार निर्माणे च अभिभावकीय सहयोग स्वीकरणस्य च नीतिः गृहीता वर्तते। एवमेव सप्तषु एव प्रदेशेषु प्रमुखाणां चिकित्सालयानां चरणबद्धरूपेण शिक्षण चिकित्सालयस्य विशिष्टीकृत स्वास्थ्य केन्द्रस्य च रूपेण रूपान्तरणं करिष्यते इति च सर्वकारेण उद्घुष्टं वर्तते। अत्रान्तरे सर्वकारेण प्रस्तुते आगामिनः आर्थिक वर्षस्य आयव्ययिक विवरणे राजनीतिक दलैः मिश्रिता प्रतिक्रिया दत्तास्ति। प्रतिनिधिसभायाः ह्यः उपविष्टे द्वितीयोपवेशे अर्थमन्त्रिणा डॉ सोनिम वाग्ले विधेन आगामिनः आर्थिक वर्षस्य राजस्वस्य व्ययस्य च वार्षिकम् अनुमानितं विवरणं पञ्जीकारितमस्ति। अर्थमन्त्रिणा डॉ वाग्ले विधेन प्रतिनिधिसभायाः ह्यस्तने एव उपवेशे एतद् विक्रमवर्षीयम् आर्थिक विधेयकं प्रस्तुतमासीत्। उपवेशे सभामुख डोल प्रसाद अर्यालः प्रतिनिधिसभायाः अस्यैव ज्येष्ठ मासस्य अष्टादशे, एकोनविंशे, विंशे च दिवसेष् उपवेक्ष्यमाणेष् उपवेशेष् आयव्ययकमाधृत्य विमर्शनस्य कार्यक्रमं निर्धारितवान् वर्तते। एवमेव राष्ट्रियसभायाः उपवेशेऽपि अर्थमन्त्रिणा डॉ वाग्ले विधेन आगामिनः आर्थिक वर्षस्य राजस्वस्य व्ययस्य च वार्षिकम् अनुमानितं विवरणं पञ्जीकारितमस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः सर्वासु राजनीतिक निष्ठायां मूल्यमान्यताचरणेष् च परिवर्तनेन सह ऐक्यबद्धतया अग्रे वर्धितुं बलं ददाति। एकोनविंशतितमस्य गणतन्त्र दिवसस्य अवसरे ह्यः टुंडीखेलवर्तिनी सैनिक मञ्चे आयोजिते विशेष समारोहे राष्ट्रपतिः पौडेलः दलैः सर्वकारेण नेतृत्वेन च सर्जनशीलैः, विनयशीलैः, जनोत्तरवाहिभिः, सच्चरित्रैश्च भाव्यमिति उक्तवान्। राजनैतिकोपलब्धिनां नागरिकैः सह योजनमेव पर्याप्तं न भवति इति चर्चयन् राष्ट्रपतिः पौडेलः शासकीय चरित्रमपि परिवर्तनीयं भवति इति बलं दत्तवान्। राष्ट्रपतिः पौडेलः प्राप्त राजनीतिकाधिकारस्य आधारभूमौ सामाजिक न्यायसहिताया च सामाजिक आर्थिक समृद्धि सुनिश्चयनाय बलम अदात। समारोहे उपराष्ट्रपति रामसाय प्रसाद यादव, प्रधानमन्त्री बालेन्द्र शाह, प्रधान न्यायाधीश, सभामुख, राष्ट्रिय सभाया अध्यक्ष, मन्त्रिण, सांविधानिक निकायानां प्रमुखा, नेपालवर्तिनां कूटनीतिक नियोगानां प्रमुखा, प्रतिनिधय, उच्च पदस्थाधिकारिण, समाजस्य लब्ध प्रतिष्ठिता जनाश्च सहभागिन आसन्। समारोहे नेपाली सेना, नेपाल प्रहरी, सशस्त्र प्रहरी बलम, काष्ठमण्डप महानगरपालिका, ललितपुर महानगरपालिका, उपत्यका अन्तर्गत अन्य नगरपालिका, नेपाल स्काउट नाम्नी संस्था च विशेष यात्राणाम संस्कृतिनाञ्च प्रदर्शनम् अकुर्वन्। प्रमुख प्रतिपक्षिणः नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा निगदति, भूम्यावासीनानां जनानां व्यवस्थापनाय सर्वकारः सफलः सम्भूतो नास्ति। नेपाली कांग्रेस दलस्य केन्द्रीय नीत्यनुसन्धान प्रशिक्षण प्रतिष्ठानेन ह्य ललितपुरे आयोजिते कार्यक्रमे सभापतिः थापा अन्येषां कृते नदीतटीय क्षेत्रस्य वसतयः अव्यवस्थिता दृश्यन्ते परं निवसताम् नागरिकाणां कृते तत्क्षेत्रमेव सर्वस्वमस्तीति प्रावोचत्। सभापतिः थापा भूम्यावासहीनानां जनानां समस्याः समाधातुं नेपालस्य संविधाने एव आवासस्याधिकारः सुनिश्चितोऽस्ति इत्यतः विधि अनुसारेण भूम्यावासहीनानां व्यवस्थापनं कर्तव्यं समुचितं भवति स्म, परं सर्वकारेण बलपूर्वकं नदीतटीय क्षेत्रेषु स्थितानां जनानाम् अपसारणस्य कार्यं विहितमस्ति इति आरोपितवान्। राष्ट्रपतिः रामचन्द्र पौडेलः कृषकाणां सम्मानाय राज्येन प्राथमिकता प्रदेयति बलं ददाति। कृषि वन पर्यावरण मन्त्रालयेन ह्य आयोजिते राष्ट्रियोत्कृष्ट कृषक पुरस्कार वितरण कार्यक्रमे राष्ट्रपतिः पौडेलः देशस्य समृद्धिराधारः कृषिक्षेत्रमस्तीति चर्चयन् कृषिक्षेत्रं न केवलं जीविकोपार्जनाय अपितु राष्ट्रनिर्माणस्य प्रमुखाधारशिलारूपेण अग्रेसारणीयम् इत्यत्र बलं दत्तवान्। राष्ट्रपतिः पौडेलः राज्येन नैजक्षेत्रेण सम्बद्ध निकायैश्च एकीभूय कृष्यं निवेशनाय अग्रेवर्धनीयमित्यत्र बलं प्रादात् इति समाचारः।